क्षम्यताम्। एवं गगनं नाम अत्र खगजातिः एवं देवाः गच्छन्ति इति गगनं इति। अनन्तरम् अनन्तं न विद्यते अन्तः यस्य तत् अनन्तं, यस्य अन्तः किमपि नास्ति अतः तदेव अनन्तम् इति उच्यते। आकाशस्य यथा वयं जानीमः लक्षणम् अनन्तं। सुरवर्तमा, सुराणां वर्तमा सुरवर्तमा, देवानां मार्गः आकाशः अस्ति अतः सुरवर्तमा इति उच्यते। देवाः तत्र सञ्चरन्ति यथा वयं जानीमः अतः सुरवर्तमा इति उच्यते। खं खनति ज्ञानमिति खं नाम निरूपत्वात् दुर्ज्ञेयं, यदस्ति तदे स एव आकाशः, तस्य रूपराहित्यमस्ति। एवं निरूपत्वात् दुर्ज्ञेयं वर्तते, अत एव ज्ञानं खनति, अनेन खम् इति आकाशस्य अपरं नाम। खनु अवधारणे इत्यस्माद्धातोः इदं पदं निष्पन्नं, नाम बुद्ध्या ज्ञातुम् अशक्यम्। अतः वियद्विष्णुपदं वापि पुंस्याकाशविहायसि, अनन्तरश्लोकपादः। वियत् वियच्छति न उपरमते इति वियत् तकारान्त नपुंसकलिङ्गशब्दः, यमु उपरमे इत्यस्माद्धातोः इदं पदं निष्पन्नं, नाम यथा पूर्वोक्तरीत्या अनन्तत्वं वर्तते तदेव अत्र न उपरमते इति इति एवम् अनेन पदेन तदेव सूचितं। वियच्छति न उपरमते इति वियत् विष्णुपदम्, अनन्तरं नाम आकाशस्य विष्णुपदं, विष्णोः पदं विष्णुपदम्। विष्णुशब्दस्य वेवेष्टि व्याप्नोति इति विष्णुः इत्यर्थः, आकाशस्यापि व्यापकलक्षणं वर्तते अतः आकाश एव विष्णुपदम् इति उच्यते। अकारान्त नपुंसकलिङ्गशब्दः वियद्विष्णुपदं वापि पुंस्याकाशविहायसि इति आकाशः, अनन्तरशब्दः आकाशः। आसमन्तात् काशन्ते सूर्यादयः अत्रेत्याकाशम्, अकारान्तनपुंसकलिङ्गशब्दः। काश्रुदीप्तौ इत्यस्माद्धातोः इदं पदं निष्पन्नम्, अत्र आसमन्तात् सूर्यादयः, सूर्यचन्द्रनक्षत्रादयः अत्र प्रकाशन्ते अतः काशन्ते अतः आकाशः इति उच्यते।